शङ्खचक्रगदापद्माशाङ्गखड्गधरं सदा नमामि पितरं नित्यं वासुदेवं जगत्पतिं सच्चिदानन्दरूपं तम् अनामयमनन्तरम् एकमेकान्तमभयं विष्णुं विश्वहृदिस्थितं नानास्वभावमत्यन्तस्वभावेन विचारितम् अविशेषम् अनाद्यन्तं प्रणमामि सनातनं कुन्देन्दुसन्निभं वन्दे सुधारसनिभं विभुं ज्ञानमुद्रा पुस्तकारी शङ्खाक्षायुधधारिणम् आनन्दमदरं नित्यम् आत्मेशममितद्युतिं वन्दे विश्वस्य पितरं विष्णुं विश्वेश्वरं सदा अमन्दानन्दसन्दोह सन्तोषितजगत्त्रयं नारायणमणीयांसं वन्दे देवं सदातनं सूर्यमण्डलमध्यस्थं वराभयकरोद्यतं सूर्यामितद्युतिं वन्दे नारायणमनामयं विश्वं विश्वाकरं वन्दे विश्वस्य प्रपितामहं नानारूपमदं नित्यं विश्वात्मानं प्रजापतिम् कालाकालविचारादिप्रकालितसदातनं पुरुषं प्रकृतिस्थं च वन्दे विष्णुमदोत्तमं ब्रह्मणः पितरं वन्दे शङ्करस्य पितामहं श्रियप्रतिमदं नित्यम् इन्द्रादिप्रपितामहं प्रतिप्रतिष्ठितं विष्णुं नित्यामृतमनामयं शङ्खचक्रधरं वन्दे वराभयकरोद्यतम् प्रतापप्रतिशेषेण दूरीकृतविदूषणं विदारितारिमत्यन्तप्रसन्नं प्रणमाम्यहम् अप्रमेयमदं नित्यं विशालममृतं परं हृदनित्यालयायं लोके नमस्यामि जगत्पतिं सुनित्यसुखमक्षय्यं शुद्धं शान्तं निरञ्जनं लोकालोकविचाराढ्यं नमस्यामि श्रियपतिम् अमन्दानन्दसन्दोह सान्द्रमिन्द्रानुजं परं नित्यावदातमेकान्तं प्रमाणातीतमक्षयं लोकालोकपतिं दिव्यं नमस्यामि रमापतिं श्रीमदानन्दतीर्थभगवत्पादाचार्यविशिष्टद्वादशस्तोत्रेषु तृतीयं स्तोत्रं सम्पूर्णम्।